नमः सर्वेभ्यः। अद्य चम्पूरामायणस्य बालकाण्डे पञ्चत्रिंशः पाठः, सेप्टेम्बर् मासस्य सप्तदशः दिनाङ्कः। आदौ मङ्गलं कुर्मः। कोऽपि मङ्गलश्लोकं पठितुमिच्छति? जानकी भगिनी,
लक्ष्मीं तनूतु नितरामितरानपेक्षम्, अङ्घ्रिद्वयं निगमशाखिशिखाप्रभालम्, हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम्, विज्ञादिभेद शतधारदुरन्धरं नः।
धन्यवादाः। गतवर्गे वयम् अहल्यायाः वृत्तान्तं दृष्टवन्तः। अत्रागमत् गौतमधर्मदारान् अनार्यजुष्टेन पथा महेन्द्रः, सचक्रुधा निर्वृषणं वृषाणं भार्याम् अदृश्याञ्च मुनिश्चकार। इन्द्रस्य दुराचरणं, तेन क्रुद्धस्य गौतमस्य शापः। इन्द्रम् अहल्यां च शप्तवान् गौतमः। पुनश्च अहल्यायाः शापविमुक्तिः अपि तेनैव सूचिता। वनमेतद् गते रामे शापान् मुक्ता भविष्यसि इति एवं ज्ञात्वा इत्थं विदितवृत्तान्ते। तत्र देवाः इन्द्रस्य शापं विज्ञाय पितॄणां प्राभवाल्लेभे मेषस्य वृषणं वृषा, इन्द्रः मेषस्य वृषणं प्राप्तवान्। एवमुक्त्वा अहल्यायाः कथाम् उक्त्वा विश्वामित्रः रामं गौतमाश्रमं प्रति नयति। यदा रामः गौतमस्य आश्रमं प्रविशति तदा अहल्या शापान् मुक्ता स्वस्याः रूपं प्राप्नोति, गौतमश्च तत्र आगच्छति। तत्र सः श्लोकः भोजेन श्लेषम् उपयुज्य विरचितः। दुःखे सुखे च रज एव बभूव हेतुः, तादृग्विधे महति गौतमधर्मपत्न्याः। तस्याः शापस्य कारणमपि रजः, शापमोचनस्य कारणमपि रजः। तत् कथम् इत्यपि स एव कथयति। यस्माद् गुणेन रजसा विकृतिं गता सा, रामस्य पादरजसा प्रकृतिं प्रपेदे। रजोगुणेन आकृष्टा सा शापम् अनुभूतवती। अधुना तु श्रीरामस्य पादधूलेः प्रभावेण पुनः स्वरूपं प्राप्तवती इति अग्रे पश्यामः। तस्मिन् अहल्यया गौतमेन च कृतमातिथ्यं विश्वामित्रस्वराजपुत्रः प्रतिगृह्य मिथिलोपकण्ठभुवि जनकयजनभवनम् अभजत इति गद्यम्। तस्मिन् अहल्यया गौतमेन च कृतम् आतिथ्यं विश्वामित्रः स राजपुत्रः प्रतिगृह्य मिथिलोपकण्ठभुवि, मिथिला उपकण्ठभुवि, मिथिलोपकण्ठभुवि जनकयजनभवनम् अभजत। तस्मिन् तत्र गौतममहर्षेः आश्रमे अहल्यया गौतमेन च, अहल्यया स्वरूपं प्राप्तवती अहल्या, सो तया गौतमपत्न्या गौतमेन च, गौतमः अपि सः महर्षिः अतः ज्ञानदृष्ट्या विज्ञाय सोऽपि तस्मिन् समये तमाश्रमं प्राप्नोति। तत्र ताभ्यां दम्पतिभ्यां कृतम् आतिथ्यं, कृतं विहितम् आतिथ्यम् उपचारं प्रतिगृह्य विश्वामित्रः सराजपुत्रः प्रतिगृह्य, प्रतिगृह्य अङ्गीकृत्य स्वीकृत्य तौ अतिथिसत्कारं कुरुतः तत् स्वीकृत्य विश्वामित्रः सराजपुत्रः राजपुत्राभ्यां सहितः रामलक्ष्मणाभ्यां सहितः मिथिलोपकण्ठभुवि उपकण्ठं नाम समीपस्थम् इदानीं वदामः किल सबर्ब् नगरं भवति तस्य बहिः कश्चन प्रदेशः उपनगरम् इत्यपि उच्यते उपकण्ठं नाम समीपस्थम् इत्यर्थः सो मिथिलानगरस्य प्रान्तभूमौ मिथिलानगरस्य सीमप्रदेशे काचित् भूमिः तत्र जनकयजनभवनं जनकस्य यजनभवनं यागशाला महाराजस्य जनकस्य यागशालाम् अभजत प्राप्तवान् अवाप गौतमाश्रमे अहल्या गौतमयोः सङ्गमे ताभ्यां कृतम् आतिथ्यं स्वीकृत्य विश्वामित्रः मिथिलां प्राप्तवान् इत्यर्थः सो कौशिकः गौतममहर्षेः आश्रमपदे सो इन् द हर्मिटेज् आफ् गौतम स्वरूपं प्राप्तया अहल्यया गौतमेन च विहितम् उपचारम् अङ्गीकृत्य सो एक्सेप्टिङ्ग् द हास्पिटालिटि आफ् अहल्या हू रिगेन्ड् हर् फार्म् एण्ड् गौतम रामलक्ष्मणाभ्यां सह सो अलाङ्ग् वित् राम एण्ड् लक्ष्मण यागशालां प्राप्तवान् रीच्ड् द सेक्रिफिशियल् प्लेस् आर् द बिल्डिङ्ग् आफ् जनक जनकराजस्य यागशालां प्राप्तवान् कुत्र मिथिलानगरस्य प्रान्तभूमौ सो विच् वास् क्लोज् टु मिथिला आन् द औट्स्कर्ट्स् आफ् मिथिला व्याकरणांशान् पश्यामः तस्मिन् अहल्यया तत्र नकारस्य आगमः नमुडागमसन्धिः इत्युच्यते सो नकारस्य ह्रस्वस्वरात् परस्य नकारस्य स्वरे परे सो वेन् नकार इस् प्रिसीडेड् बै अ ह्रस्वस्वर नकार पदान्ते नकारः पूर्वं ह्रस्वस्वरः अग्रे स्वरः So in such case, the nakara, there is the addition of another nakara. The sandhi is called Namudagama Sandhi. So tasminna halyaya. Vishwamitra sarajaputraha prati grihya. Prati upasargaha graha upadane dhatohu lyabantam avyayam. Mithilopa kanthabhuvi. Kanthasya samipam upakantham iti avyayibhava samasaha. उपकण्ठं भूः सो उपकण्ठं नाम समीपम् इत्यर्थः वस्तुतः कण्ठस्य समीपं क्लोज् टु द हार्ट् सो औट्स्कर्ट् इत्यर्थे उपकण्ठं भूः उपकण्ठभूः मिथिलायाः उपकण्ठभूः तस्याम् ऊकारान्तस्त्रीलिङ्गः भू शब्दः भूः भुवौ भुवः सप्तमी विभक्तौ भुवि भुवोः भूषु इति रूपं भवति जनकयजनभवनम् अभजत भजसेवायां धातुः लङ्लकारे प्रथमपुरुषे एकवचनं तस्मिन् अहल्यया गौतमेन च कृतमातिथ्यं विश्वामित्रस्तराजपुत्रः प्रतिगृह्य मिथिलोपकण्ठभुवि जनकयजनभवनम् अभजत तदनु जनकेन विधिवदभ्यर्थिते तस्मिन् निमिकुलपुरोधाः शतानन्दो रघुनन्दनम् एवमभाषत तदनु जनकेन विधिवत् अभ्यर्थिते तस्मिन् निमिकुलपुरोधाः शतानन्दः रघुनन्दनम् एवम् अभाषत इति पदच्छेदः तत्र पूर्वं कश्चित् प्रश्नः अस्ति मिथिलोपकण्ठभुवि तस्यां वा तस्मिन् वा इति तस्यामेव मिथिलोपकण्ठभूः इति स्त्रीलिङ्गशब्दः उकारान्तस्त्रीलिङ्गः अतः तस्यां मिथिलोपकण्ठभुवि स्त्रीलिङ्गशब्दः तदनु तदनन्तरं यदा विश्वामित्रः मिथिलां प्राप्तवान् तदनन्तरं तस्मिन् जनकेन विधिवदभ्यर्थिते इति प्रतिसप्तमी प्रयोगः తస్మిన్ నామ విశ్వామిత్రే జనకేన జనక మహారాజేన విధివత్ విధిం అర్హతి ఇది విధివత్ యథా విధి అతిథి సత్కార ఏన రూపేణ కరణీయ తథా అభ్యర్థితే సతి పూజితే సతి సహ విశ్వామిత్ర బ్రహ్మర్షి అతః తస్య తదుచితం జనక మహారాజ తస్మై అర్ఘ్యపాద్యాదినా సత్కారం విహితవాన్ తతః సో తదను జనకేన విధివద్ అభ్యర్థితే తస్మిన్ నిమికుల పురోధాః నిమికులం జనకస్య పూర్వజః నిమిః నిమి నామ మహారాజః అతః నిమికులం నామ జనకస్య వంశః తస్య పురోధాః పురోహితః కులగురుః కులపురోహితః యథా సూర్యవంశస్య వశిష్ఠః కులపురోహితః ఏవం నిమికులస్య పురోహితః శతానందః సః శతానందః అహల్యా గౌతమయోః పుత్రః శతానందః సః రఘునందనం రఘునందనః రామః రఘుకులసంభూతం రామచంద్రం ఏవం అభాషత ఇత్థం అవోచత్ ఇదానీం శతానందః శ్రీరామం ఉద్దిశ్య విశ్వామిత్రస్య కథాం కథయతి ఏతావంతం కాలం విశ్వామిత్రః బహ్వీః కథాః ఉక్తవాన్ పూర్వమేవ ఉక్తం కిల ఏంతత్ ఇతి వివిధ రసాభిః కౌశిక వ్యాహృతాభిః శ్రుతిపథమధురాభిః పావనీభిః కథాభిః గణిత గహన కృచ్ఛ్రం గచ్ఛతో దాశరథ్యోః సమకుచ దివ సద్య తాదృశం మార్గదైర్ఘ్యం అయోధ్యాయాః ఆరభ్య మిథిలా పర్యంతమపి విశ్వామిత్రః బహు ప్రకారైః బహ్వీః కథాః ఉక్తవాన్ కింద విశ్వామిత్రస్య కథ శతానందేన రామలక్ష్మణౌ ప్రతి ఉచ్యతే ఇదానీ రామాయణే అపి ఏవమేవ అస్తి సవివరణం విశ్వామిత్రస్య కథాం కథయతి సో తదను జనకేన విధివద్ అభ్యర్థితే తస్మిన్ నిమికుల పురోధా శతానందో రఘునందనం ఏవమభాషత సో తత్ర జనక మహారాజేన విశ్వామిత్రే యథావిధి పూజితే సతి జనకవంశ పురోహితః శతానందః రాఘవం ఇదం అబ్రవీత్ సో ఆఫ్టర్ విశ్వామిత్ర వాజ్ వర్షిప్డ్ వెనరేటెడ్ ప్రాపర్లీ బై జనక శతానంద హూ వాజ్ ద గురు ఆఫ్ ద జనక వంశ హీ స్టార్టెడ్ టెలింగ్ రామ అభ్యర్థితః అభి ఉపసర్గః అర్చపూజాయాం ఇతి ధాతోః సప్రత్యయంతః నిమికుల పురోధాః నిమేః కులం నిమికులం నిమికులస్య పురోధాః నిమికుల పురోధాః పురోధస్ ఇతి సకారాంతః పుల్లింగః తస్య ప్రథమా విభక్తౌ ఏకవచనం వేధాః వేధసౌ వేధకః వేధస్ శబ్దః తద్వత్ పురోధస్ శబ్దః పురోధాః పురోధసౌ పురోధకః ఇతి అగ్రిమః శ్లోకః విశ్వామిత్రస్య కథాయాః ఆరంభః అనువక్తుం ఇచ్ఛంతి మహాదేవన్
నమస్తే
తిష్టన్ క్షత్రార్హ వృత్తౌ
తిష్టన్ క్షత్రార్హ వృత్తౌ తిష్టన్ క్షత్రార్హ వృత్తౌ
మునిరగమదసావాశ్రమం బ్రహ్మసూనోః
మునిరగమదసావాశ్రమం బ్రహ్మసూనోః మునిరగమదసావాశ్రమం బ్రహ్మసూనోః
ఆతిథ్యం తత్ర లబ్ధ్వా
ఆతిథ్యం తత్ర లబ్ధ్వా ఆతిథ్యం తత్ర లబ్ధ్వా
నిరవధిసురభేః
నిరవధిసురభేః నిరవధిసురభేః प्राभवादित्यवेत्य
सा तेन प्रार्थिता भूत्
सा तेन प्रार्थिता भूत्
तदनुमुनिवरे नाभ्युपेते चकर्ष क्रोशन्तीं तां तयैव
प्रचुरबलजुषा
कान्दिशीकोबभूव परच्छेदः
तिष्ठन् क्षत्र अर्ह वृत्तौ मुनिः अगमत् असौ आश्रमं ब्रह्मसूनोः आतिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवात्
प्राभवात् इति
अवेत्य सा तेन प्रार्थिता अभूत् तदनु मुनिवरे न अभ्युपेते चकर्ष क्रोशन्तीं तां तया एव प्रचुर बलजुषा कान्दिशीकः एकः पदं कान्दिशीकः बभूव
सम्यक् तिष्ठन् क्षत्र अर्ह वृत्तौ क्षत्रार्ह वृत्तौ मुनिः अगमत् असौ आश्रमं ब्रह्मसूनोः आतिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवात् इति अवेत्य सा तेन प्रार्थिता अभूत् तदनु मुनिवरे न अभ्युपेते चकर्ष क्रोशन्तीं तां तया एव प्रचुर बलजुषा कान्दिशीकः बभूव वाक्यानि बहूनि सन्ति तो अगमत् इति प्रथमम् अनन्तरं प्रार्थिता अभूत् चकर्ष बभूव तो चत्वारि क्रियापदानि सन्ति चत्वारि वाक्यानि भवन्ति अगमत् इति प्रथमं क्रियापदम् अगमत् अगच्छत् गतवान् कः अगमत् असौ मुनिः नाम विश्वामित्रः कथं भूतः सन् अगमत् तिष्ठन् क्षत्रार्हवृत्तौ मुनिः अधुना सः मुनिः किन्तु तदा क्षत्रार्हवृत्तौ तिष्ठन् विद्यमानः कस्यां तिष्ठन् क्षत्रार्हवृत्तौ क्षत्रियोचितधर्मे जन्मना क्षत्रियः सः सो क्षात्रं धर्मम् अनुतिष्ठन् असौ मुनिः अगमत् कुत्र अगमत् आश्रमं तपोवनं कस्य आश्रमं ब्रह्मसूनोः ब्रह्मणः पुत्रः वसिष्ठः सो वसिष्ठस्य आश्रमं गतवान् विश्वामित्रः सो यदा सः क्षत्रियः आसीत् कौशिकः सः विश्वामित्रस्य क्षम्यतां वसिष्ठस्य आश्रमं गतवान् सो तत्र किम् अभूत् सा तेन प्रार्थिता अभूत् इत्यत्र द्वितीयं वाक्यं तत्पर्यन्तं गच्छति सो अभूत् आसीत् का अभूत् सा तत्र पूर्वम् आतिथ्यं लब्ध्वा सुरभेः आतिथ्यं सुरभेः निरवधि आतिथ्यं लब्ध्वा सा नाम सुरभिः कामधेनुः प्रार्थिता अभूत् याचिता अभूत् सो केन तेन कौशिकेन सो ही आस्क्ड फॉर सुरभि द कामधेनु किं कृत्वा लब्ध्वा अवाप्य किं लब्ध्वा आतिथ्यम् अतिथिभ्यः यत् उपचाराः क्रियन्ते तत् अतिथिसत्कारं प्राप्य कीदृशम् आतिथ्यं निरवधि अवधेः निर्गतं निरवधि सो विथौट् अवधि अवधिः सीमा लिमिट् आर् बौण्डरि सो निरवधि निस्सीमं सो निरवधि आतिथ्यं लब्ध्वा अयं तु वस्तुतः आश्रमः कश्चिन् महर्षेः आश्रमः किन्तु अयं महाराजः कौशिकः तत्र निस्सीमम् आतिथ्यं प्राप्तवान् यादृशम् आतिथ्यं तस्य राजभवने अपि न लभ्यते तादृशम् अत्र प्राप्य कुत्र लब्ध्वा तत्र वसिष्ठमहर्षेः आश्रमे सो आतिथ्यं तत्र लब्ध्वा निरवधि सो निरवधि निस्सीमम् आतिथ्यं तत्र वसिष्ठमहर्षेः आश्रमे प्राप्य अवेत्य नाम बुद्ध्वा ज्ञात्वा इत्यर्थः किं ज्ञात्वा प्राभवादिति सो तत्सर्वं तत् निरवधि आतिथ्यं प्राभवात् माहात्म्यात् कस्याः प्राभवात् सुरभेः कामधेनोः प्रभावेण तादृशम् आतिथ्यं लब्धम् इति ज्ञातवान् तदा सा तेन प्रार्थिता भूत् सो तत्र क्षत्रार्हवृत्तौ तिष्ठन् असौ मुनिः ब्रह्मचूनोः आश्रमम् अगमत् तत्र निरवधि आतिथ्यं लब्ध्वा सुरभेः प्राभवात् इति अवेत्य सा तेन प्रार्थिता अभूत् इति द्वितीयं वाक्यं सम्पन्नम् तदनन्तरं ततः किम् अभूत् चकर्ष इति तृतीयं क्रियापदं चकर्ष आकृष्टवान् बलात् कृष्टवान् फोर्सिबलि ड्राग्ड् काम चकर्ष ताम् कामधेनुम् सो चकर्ष ताम् सुरभिम् कामधेनुम् कीदृशीं ताम् क्रोशन्तीम् आक्रन्दमानाम् सा धेनुः न इच्छति गन्तुम् सा क्रन्दति तथापि क्रन्दन्तीम् ताम् चकर्ष बलात् कृष्टवान् कदा मुनिवरे न अभ्युपेते वसिष्ठमहर्षौ न अङ्गीकृतवती सो एषः सुरभिम् मह्यम् देहि सहस्रशः गाः ददामि इति कौशिकः उवाच किन्तु वसिष्ठः नाङ्गीचकार तदा वसिष्ठे न अङ्गीकृतवती क्रन्दमानां तां धेनुं कौशिकः सकर्ष कृष्टवान् सो तदनु मुनिवरे न अभ्युपेते सति तां क्रोशन्तीं सकर्ष इति तृतीयं वाक्यम् ततः बभूव इति अन्तिमं क्रियापदम् अभवत् कीदृशः बभूव कान्दिशीकः इति विशिष्टं पदम् अमरकोशे साक्षात् तथैव अस्ति कान्दिशीको भयद्रुतः यः भयेन पलायनं करोति सः कान्दिशीकः विशिष्य युद्धे यः पलायते युद्धाद्विमुखः पलायते सः कान्दिशीकः सो कान्दिशीकः बभूव भयेन पलायनं कृतवान् तया एव कामधेन्वा एव कीदृश्या तया प्रचुरबलजुषा तदा कामधेनुः वसिष्ठं प्रार्थितवती मां रक्ष इति वसिष्ठः उक्तवान् अहं मम शक्तिः नास्ति भवती आत्मरक्षणं करोतु इति तदा कामधेन्वाः एकेन हुङ्कारेण बहवः महान्तः योधाः निर्गताः सो कौशिकस्य सैन्यं कौशिकञ्च पराजितवन्तः. अतः प्रचुर बलजुषा भूरिशः सेनाबलेन युक्तया, तस्याः इच्छया तत्र योधाः उत्पन्नाः. तैः कान्दिशीकः बभूव, भयद्रुतः अभूत्. कौशिकः वसिष्ठस्य आश्रमं गतवान्, तत्र आतिथ्यं लब्ध्वा तत्सर्वं सुरभेः कारणात् इति विज्ञाय सुरभिं प्रार्थितवान्. वसिष्ठेन निराकृतस्सन् तां बलात् नेतुं प्रयत्नं कृतवान्. अनन्तरं तया बहवः योधाः उत्पन्नाः, यैः सः भीतस्सन् पलायनं चकार इति श्लोकस्य तात्पर्यम्. सो असौ मुनिः क्षत्रार्हवृत्तौ तिष्ठन् ब्रह्मसूनोः आश्रमम् अगमत्. तत्र निरवधि आतिथ्यं लब्ध्वा सुरभेः प्राभवात् इति अवेत्य सा तेन प्रार्थिता अभूत्. तदनु मुनिवरे न अभ्युपेते, क्रोशन्तीं तां चकर्ष, तया एव प्रचुरबलजुषा कान्दिशीकः बभूव इति अन्वयः. सो अयं मुनिः विश्वामित्रः क्षत्रधर्मम् आचरन् कदाचित् ब्रह्मपुत्रस्य वसिष्ठस्य आश्रमपदम् अगच्छत्. विश्वामित्र विचिटेड् द हर्मिटेज् आफ् वसिष्ठ, हू वास् द सन् आफ् ब्रह्मन् हिम्सेल्फ्. तत्र महर्षिणा समर्पितं निस्सीमम् अतिथिसत्कारं सर्वमपि तत्रस्थायाः कामधेनोः बलादेव साध्यमभूत् इति बुद्ध्वा, सो हि रिसीव्ड् हॉस्पिटालिटी फ्रॉम वसिष्ठ विच वाज बाउंडलेस. सो सरप्राइज्ड बाय दैट ही रियलाइज्ड दैट ऑल ऑफ इट वाज पॉसिबल बिकॉज ऑफ कामधेनु. तेन साधेनुः याचिता एंड ही आस्क्ड फॉर दैट कौ. वसिष्ठ महर्षौ नांगीकृतवती, सह ताम आक्रंदमानां धेनुं बलात् कृष्टवान्. व्हेन वसिष्ठ डिड नॉट एग्री, ही फोर्सिबली ट्राइड टू ड्रैग अवे द कौ, किंतु तया सृष्टेन भूरिसेनाबलेन भयद्रुतः अभूत्. बट ही रन अवे इन फियर व्हेन शी क्रिएटेड मेनी फियरसम वॉरियर्स. तत्र व्याकरणांशान् पश्यामः. तिष्ठन् ष्ठा गतिनिवृत्तौ धातोः शतप्रत्ययान्तः, तकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम्. क्षत्रार्ह वृत्तौ, क्षत्राणाम् अर्हः क्षत्रार्हः, क्षत्रार्हा वृत्तिः, नाट् क्षत्रार्हाणां, क्षत्रार्हा वृत्तिः, क्षत्रार्ह वृत्तिः तस्याम्. सो इकारान्तः स्त्रीलिङ्गः सप्तमी विभक्तौ एकवचनम्. मुनिः अगमत् असौ आश्रमं ब्रह्मसूनोः, ब्रह्मणसूनुः ब्रह्मसूनुः तस्य. उकारान्तः पुल्लिङ्गः षष्ठी एकवचनम्. आतिथ्यम् अतिथेः इदम् आतिथ्यं, तद्धितप्रत्ययः ष्यञ् इति. सो आतिथ्यम् इति इट् इस् यूस्ड् बोत् फार् hospitality, the action of hospitality, and also for the materials which are offered to an atithi. So here in this case when we say niravadhi atithyam, they are referring to the materials what is being offered to the atithi. Atithehe vastuni atithyam iti atra arthah. So atithyam labdhva niravadhi निर्गतम् अवधेः निरवधि तत्पुरुषसमासः, नाट् अव्ययीभाव. निरवधि आतिथ्यम्, आतिथ्यम् इत्यस्य विशेषणम् अतः नपुंसकलिङ्गम्. सो इट् इस् तत्पुरुषसमासः, प्रादि तत्पुरुष निरवधि. सुरभेः प्राभवात्, केनचित् पृष्टं प्राभवात्, पूर्वमपि दृष्टं पितॄणां प्राभवात् लेभे. प्रभोः भावः प्राभवं, सो सामर्थ्यम् इत्यर्थः, ऐश्वर्यं माहात्म्यम् इत्यर्थः. सो देर् इस् प्रभाव एण्ड् देर् इस् प्राभव. Similar meanings, but the derivation of the word is different. So prabhava is derived from prabhu. Prabhoho bhavaha prabhavam. Prabhava is prakrishtaha bhavaha prabhavaha. So arthastu samanaha, not very different. So iti avetya. Ava upasargaha ingatau dhatohu lyabantam avyayam. सा तेन प्रार्थिता अभूत् तदनु मुनिवरे नाभ्युपेते अभ्युपेत. अभि उप उपसर्गद्वयम् इणगतौ धातोः क्त प्रत्ययान्तः. चकर्ष कृशविलेखने लिट्लकारे प्रथमपुरुषे एकवचनम् चकर्ष. क्रोशन्तीम् कृश आह्वाने क्रोशति. सो शत्रु प्रत्ययान्तः तस्मात् स्त्रीलिङ्गे नीप् प्रत्ययः. क्रोशन्ती इति ईकारान्त स्त्रीलिङ्गः द्वितीयाविभक्तौ एकवचनं. क्रोशन्तीम् प्रचुर बलजुषा प्रचुरं बलं प्रचुर बलं प्रचुर बलस्य जुट् प्रचुर बलजुट् तया प्रचुर बलजुष् इति शकारान्तः स्त्रीलिङ्गः तृतीयाविभक्तौ एकवचनम्. सो प्रचुरबलं बलेन युक्ता इत्यर्थः. सो प्रचुरबलजुषा. कान्दिशीकः कान्दिशीको भयद्रुतः बभूव. सो द मीटर् हियर् इस् काल्ड् स्रग्धरा. सो दीर्घं वृत्तं प्रतिपादम् एकविंशतिः अक्षराणि. मृभ्नैर्यानां त्रयेण त्रिमुनि यतियुता स्रग्धरा कीर्तितेयम् इति स्रग्धरायाः लक्षणम्. सो मृभ्नैः मरभन यानां त्रयेण य य य त्रयः यगणाः. सो दिस् इस् द गण डिविजन्. सो 7 × 3 = 21. त्रिमुनि यतियुता मुनि और् ऋषि स्टाण्ड्स् फार् द संख्या सप्त. दिस् इस् काल्ड् भूतसंख्या. सो बहुत्र वृत्तानां लक्षणेषु भूतसंख्या उपयुज्यते. सो वि यूस् वर्ड्स् टु स्टाण्ड् फार् नम्बर्स्. ओके, फार् एक्साम्पल् इफ् यु से इन्द्रिय, सो पञ्च इन्द्रियाणि, सो इट् स्टाण्ड्स् फार् 5. और् समथिङ्ग् लैक् गुण स्टाण्ड्स् फार् 3. Rasa stands for 6 or 9 based on the context, etc. So Rishi is always Saptarshi, Saptarshayaha. So Muni or Rishi stands for 7. Tri Muni Yati Yuta. So Trishu Sthaleshu Yatihi Bhavati Pade. So 7, 7, 7. That is the break in each pada. So Tishthan Kshatrarha Vrittau Muniragamadasau आश्रमं ब्रह्मसूनोः आतिथ्यं तत्र लब्ध्वा निरवधिसुरभेः प्राभवादित्यवेत्य सा तेन प्रार्थिताभूत् तदनुमुनिवरे नाभ्युपेते चकर्ष क्रोशन्तीं तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव. So at every 7 letters you can see that there is a split. So I am shlokah Vishwamitrasya kathayah arambhah. Any questions? बहुशस्तद्बलचकितस्य तपोबलाधिगत विविधायुधनिगमस्य भूयोऽपि सुरभिनिमित्तं समारब्धसमरस्य दिव्यास्त्रपरम्परां ब्रह्मदण्डेन निरुन्धन् अरुन्धतीजानिरवतस्थे. बहुशः तत् बलचकितस्य
తపః బల అధిగత వివిధ ఆయుధ నిగమస్య భూయః అపి సురభి నిమిత్తం సమారబ్ధ సమరస్య దివ్య అస్త్ర పరంపరాం బ్రహ్మ దండేన నిరుంధన్న అరుంధతి జానిహి అవతస్థే. బహుశః బహుధా బహు ప్రకారేణ తద్బలచకితస్య తచ్చబ్దేన ధేనుః ఉచ్యతే. సో ధేన్వాహ బలాత్ విస్వయాన్వితస్య. సో ఏకా ధేనుః ఏతాదృశం బలం నిర్మాతి ఇత్యనేన ఆశ్చర్యాన్వితః విశ్వామిత్రః. తపోబలాధిగత వివిధాయుధ నిగమస్య తపసః బలం తపోబలం. తపోబలేన అధిగతం నామ ప్రాప్తం. కిం ప్రాప్తవాన్? వివిధ ఆయుధ నిగమస్య బహువిధానాం అస్త్రాణాం సమూహమేవ ప్రాప్తవాన్ కౌశికః. యదా ధేనుం గ్రహీతుం అసమర్థః ప్రతిగతవాన్ తదా కోపేన సహ పరమేశ్వరముద్దిశ్య తపశ్చకార పరమేశ్వరాత్ బహువిధాని అస్త్రాణి ప్రాప్తవాన్. తపోబల అధిగత వివిధ ఆయుధ నిగమస్య. సురభి నిమిత్తం, సురభిః కామధేనుః తస్యాః నిమిత్తం. సో కామధేనుం ప్రాప్తుం భూయోపి భూయః పునః. సో పునరపి సమారబ్ధ సమరస్య. సో యుద్ధం ఆరబ్ధవతః. సో సః భయద్రుతః తత్ర తపోబలేన బహువిధాని అస్త్రాణి ప్రాప్య పునరపి వసిష్ఠాశ్రమం ఆగత్య కామధేన్వర్థం యుద్ధం కర్తుం ఆరబ్ధవాన్. తస్య తాదృశస్య కౌశికస్య దివ్యాస్త్ర పరంపరాం. దివ్యానాం అస్త్రాణాం సమూహం, పరంపరా సమూహః. బహువిధాని అస్త్రాణి తేన ప్రాప్తాని ఆసన్. తాని సర్వాణ్యపి అస్త్రాణి బ్రహ్మదండేన నిరుంధన్. బ్రహ్మదండః బ్రహ్మతేజోమయః దండః. వశిష్ఠః బ్రహ్మర్షిః. తస్య సమీపే ఆయుధం కిమపి నాస్తి, కింతు అస్తి తస్య బ్రహ్మదండః. సో తేన నిరుంధన్ నివారయన్ అరుంధతీ జానిహి. అరుంధతీ జాయా యస్య సః. సో అరుంధత్యాః పతిః వశిష్ఠః అవతస్థే తస్థౌ. సః యదా ఆశ్రమం ప్రతి ఆక్రమణం కరోతి, వశిష్ఠః కేవలం బ్రహ్మదండం గృహీత్వా ఆశ్రమస్య మధ్యే తిష్ఠతి. కౌశికస్య సర్వాణ్యపి అస్త్రాణి ఇంక్లూడింగ్ ద బ్రహ్మాస్త్ర. సో దేవర్ ఎంగల్ఫ్డ్ బై ద బ్రహ్మదండ. ఏకమపి అస్త్రం ఆశ్రమే కస్యాపి హాని జనయితుం సమర్థం నాసీత్. అతః సర్వాణ్యపి అస్త్రాణి వశిష్ఠః బ్రహ్మదండేన నివారితవాన్. తాత్పర్యం, ధేన్వాహ ప్రభావేణ ఆశ్చర్యాన్వితః కౌశికః తప ఆచర్య బహూని దివ్యాస్త్రాణి సంపాద్య పునరపి కామధేనోః నిమిత్తం యుద్ధం ఆరబ్ధవాన్. సో హి వాజ్ సర్ప్రైజ్డ్ బై ద పవర్ ఆఫ్ ద కామధేను. సో హి వెంట్ అండ్ పర్ఫార్మ్డ్ పెనాన్స్ టు అబ్టైన్ మెనీ కైండ్స్ ఆఫ్ డివైన్ వెపన్స్ అండ్ హీ కేమ్ బ్యాక్ టు ఫైట్ విత్ వశిష్ఠ. సో తదా తస్య సమగ్రమపి ఆయుధ సమూహం స్వస్య బ్రహ్మదండ మాత్రేణ వశిష్ఠ నివారయామాస. సో వశిష్ఠ వార్డెడ్ ఆఫ్ ఆల్ హిస్ వెపన్స్ విత్ ద హెల్ప్ ఆఫ్ జస్ట్ హిస్ బ్రహ్మదండ. తద్బల చకితస్య తస్యాః బలం తద్బలం. తద్బలేన చకితః తస్య తపోబలాధిగత వివిధాయుధ నిగమస్య. తపసః బలం తపోబలం. తపోబలేన అధిగతః తపోబలాధిగతః. ఆబ్టైన్డ్ బై తపోబల. కిం అధిగతం? వివిధాయుధ నిగమః. వివిధాని ఆయుధాని వివిధాయుధాని వివిధాయుధానాం నిగమః. నిగమః సమూహః ఇత్యర్థః. సో తపోబలాధిగతః వివిధాయుధ నిగమః యేన సహ. So this word is a visheshanam, Vishwamitrasya visheshanam. Saha kidrishaha tapobaladhigataha vividhayudhanigamaha yena tadrishaha. Surabhi nimittam, surabhehe nimittam, surabhi nimittam. Samarabdha samarasya. Samarabdha samaraha yena saha. Samarabdha samaraha tasya. Divyani astrani, divyastrani, divyastranam parampara, divyastra parampara, tam. Nirundhan, ni upasargaha, rudhir avarane iti dhatuhu, tasya shatri pratyayanta shabdaha, takaranta pullingaha, prathama vibhaktau ekavasanam. Arundhati janihi, arundhati jaya yasya saha, arundhati janihi, bahuvrihi samasaha, jayaya ning iti sutramasti, tena jaya shabdasya ning adeshaha bhavati, jani iti shabdaha bhavati. Jani shabdaha prithak nasti. So there is no independent word called jani. Okay. Samase yada jaya shabdaha asti, bahuvrihi samase, tada tasya ning adeshaha bhavati. Bahu prasiddha shabdaha, parvati janihi, janaki janihi, ityadayaha shabdaha prasiddhaha. Avatasthe, ava upasargaha, shtha dhatuhu, litlakare prathamapurushe ekavachanam, atmane padarupam, tishthati sthadhatuhu parasmaipadi, kintu ava iti upasargaha yada bhavati, tada atmane padam bhavati. Samavapra vibhyasthaha iti sutram. Sam ava pra vi. Ete upasargaha yada bhavanti tada sthadhatoho atmane padam bhavati. Mataha santishthate, avatishthate, pratishthate, vitishthate. So atra avatasthe iti atmane pade prathamapurusha ekavachana rupam. Bahushas tadbala chakitasya tapovaladhigata vividhayudhanigamasya bhuyopi surabhinimittam samarabdha samarasya divyastra paramparam brahmadandena nirundhan arundhati jani ravatasthe. So nirundhan arundhati jani atrapi ngamudagama sandhi. Tatoyan jatavyalikaha kshatratejasah param brahmameva maho mahiya iti nishchitya tatsiddhaye dakshinasyandishi tivrataran tapaschachara. Tataha ayam jatavyalikaha kshatratejasah param brahmam eva mahaha mahiyaha iti nishchitya tatsiddhaye dakshinasyam dishi tivrataram tapaha chachara. So tataha taranantaram tasya yani tena tapobalena praptani ayudhani tani sarvani yada brahmadandena nivaritani tataha taranantaram ayam kaushikaha jatavyalikasan vyalikam nama dukham pida santapaha. So tasya mahan santapaha abhut etavata shramena praptam sarvamapi balam kshanamatrena nashtam iti atyantam piditaha kshatratejasah param brahmameva maho mahiyaha. So kshatram tejaha nama kshatranam yad balam kshatriya balam tasmat param atyantam brahmam mahaha brahmam brahma sambandhi. So brahma tejasaha yad balam mahaha nama tejaha athava balam. So brahmam mahaha eva nishchayena kshatra tejasaha brahmam mahaha brahma tejaha eva mahiyaha. Mahas is तेजस् इत्यर्थः सो शक्तियुक्तः बलवत् इति निश्चित्य एवं मनसि निधाय सो ही डिसाइडेड दैट द पावर ऑफ ब्रह्मन् वाज ग्रेटर देन द पावर ऑफ क्षात्र जस्ट फिजिकल पावर सो तत्सिद्धये तस्य ब्राह्म बलस्य सिद्ध्यर्थं दक्षिणस्यां दिशि दक्षिणदिग्भागे तीव्रतरम् अत्युग्रं तपश्चचार तपः अकरोत् सो रामायणे अत्यन्तं प्रसिद्धः श्लोकः दिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलं एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे इति वाल्मीकिरामायणस्य श्लोकः दिग्बलं क्षत्रियबलं क्षत्रियबलं यदस्ति तं तद्धिक् धिक् इति अव्ययस्य योगे द्वितीया विभक्तिः भवति सो इट् इण्डिकेट्स् कण्टेम्प्ट् सो फै अपान् द क्षत्रियबल ब्रह्मतेजो बलं बलं वस्तुतः बलं किं ब्रह्मतेजः एव वस्तुतः बलम् एकेन ब्रह्मदण्डेन तस्य वसिष्ठस्य एकेन ब्रह्मतेजोयुक्तेन दण्डेन सर्वास्त्राणि हतानि मे तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः दट् इस् वेरि वेरि इम्पार्टेण्ट् द फालोयिङ्ग् श्लोक सो वि एक्स्पीरियन्स् अ लाट् आफ़् डिफीट् देर् आर् मेनि केसस् वेर् यु नो वि टेक् द राङ्ग् स्टेप् एण्ड् वि एक्स्पीरियन्स् फेल्युर् किन्तु अस्माभिः ततः परं किं क्रियते विश्वामित्रेण किं कृतं तदर्थमेव विश्वामित्रः आदर्शः भवितुम् अर्हति सो तदेतत् समवेक्ष्य अहं प्रसन्नेन्द्रियमानसः सो प्रसन्न इन्द्रियमानसः तेन वस्तुतः अत्र पराजयः अनुभूतः किन्तु तेन ज्ञानम् उत्पन्नं कीदृशं ज्ञानं ब्रह्मतेजः एव बलमिति अतः प्रसन्नेन्द्रियमानसः महत् तपः समास्थास्ये सो अहं तपः चरामि यद्वै ब्रह्मत्वकारणम् तादृशं बलं प्राप्तुं प्रसन्नेन्द्रियमानसः तपः समास्थास्ये सो पूर्वमपि तेन तपः कृतं क्रोधवशात् अस्त्रप्राप्त्यर्थं वसिष्ठं पराजेतुम् अस्त्रं प्राप्तुं सः पूर्वमपि तपः कृतवान् इदानीमपि तपश्चरति किन्तु भेदः अस्ति सा एव व्यक्तिः सो अर्लियर् ही पर्फार्म्ड् पेनन्स् बट् दट् वास् इन्स्टिगेटेड् बै आङ्गर् बै desire for revenge against Vasishtha to somehow get the Kamadhenu. Kintu idanim yat tapah karoti tattu sattvikam. So Krishna Bhagavad Gita yam kathayati. Tapah trividham bhavati. Sattvikam, rajasam, tamasam. So purvam rajasam tapah kritavan idanim tu sattvikam tapah acharitum sankalpya pratishthate kaushikah. सो तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् सो तदनन्तरं विश्वामित्रमुनिः दुःखितस्सन् क्षत्रबलापेक्षया ब्रह्मबलमेव वरम् इति विचिन्त्य ब्रह्मबलसिद्ध्यर्थं दक्षिणदिग्भागे अत्युग्रं तपः अकरोत् इति तात्पर्यं जातव्यलीकः जातं व्यलीकं यस्य सः जातव्यलीकः पीडार्थेऽपि व्यलीकं स्यात् इति व्यलीकशब्दः अमरकोशे पीडार्थकः चचार सो क्षात्रं तेजः क्षात्रतेजः क्षात्रतेजसः सकारान्तः नपुंसकलिङ्गः पञ्चमी एकवक्षणम् महीयः इत्यत्रापि सकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ एकवचनम् इति निश्चित्य तत्सिद्धये दक्षिणस्यां दिशि दिशि शकारान्तः स्त्रीलिङ्गः सप्तमी एकवचनम् तीव्रतरं तपः चचार चरगतौ धातोः लिट्लकारे प्रथमपुरुषे एकवचनम् ततोऽयं जातव्यलीकः क्षात्रतेजसः परं ब्राह्ममेव महोमहीयः इति निश्चित्य तत्सिद्धये दक्षिणस्यां दिशि तीव्रतरं तपश्चचार अथ सो विश्वामित्रस्य तपसि बहवो विघ्नाः तत्र आदौ आगच्छति त्रिशङ्कुः अथ सावित्रः क्षत्रियस्त्रिशङ्कुः सशरीरस्वर्गसिद्धिम् अभ्यर्थयमानः वसिष्ठेन प्रत्याख्यातस्तस्य पुत्रैर्महोदयादिभिर्निर्बन्धकुपितैर्दत्तचण्डालभावस्तमेनं शरणमभजत अथ सावित्रः क्षत्रियः त्रिशङ्कुः सशरीरः स्वर्गसिद्धिम् अभ्यर्थयमानः वसिष्ठेन प्रत्याख्यातः तस्य पुत्रैः महोदयादिभिः निर्बन्धकुपितैः दत्तचण्डालभावः तम् एनं शरणम् अभजत अथ विश्वामित्रे तपश्चरति सति सावित्रः क्षत्रियः सावित्रः सूर्यवंशजः पूर्वमपि आसीत् सावित्रः सगरो नृपः सविता सूर्यः तद्वंशे जातः सावित्रः सूर्यवंशजः क्षत्रियः राजन्यः त्रिशङ्कुः त्रिशङ्कुनामा सूर्यवंशस्य राजा सः सशरीरः शरीरेण सहितः सो देहसहितः स्वर्गसिद्धिं सुरलोकप्राप्तिम् अभ्यर्थयमानः कामयमानः सो देहस्य नाशानन्तरं स्वर्गप्राप्तिः इत्यस्ति सदेहं स्वर्गं प्राप्तुं तस्य इच्छा अतः सशरीरः स्वर्गसिद्धिम् अभ्यर्थयमानः वसिष्ठेन प्रत्याख्यातः सूर्यवंशस्य कुलपुरोहितः वसिष्ठः तेन प्रत्याख्यातः निराकृतः वसिष्ठः न शक्यते इति उक्तवान् वसिष्ठेन प्रत्याख्यातः तस्य पुत्रैः महोदयादिभिः निर्बन्धकुपितैः यदा वसिष्ठः निराकृतवान् तदा त्रिशङ्कुः गत्वा तस्य पुत्रान् पृष्टवान् सो महोदयादयः वसिष्ठस्य पुत्राः निर्बन्धकुपितैः अत्यन्तं पुनः पुनः सः पृष्टवान् तेन कुपिताः क्रुद्धाः के महोदयादिभिः महोदयप्रभृतिभिः तस्य वसिष्ठस्य पुत्रैः सुतैः वसिष्ठः निराकृतवान् तस्य पुत्रान् पृष्टवान् तेपि निराकृतवन्तः तथापि सः यदा पुनः पुनः पृच्छन्नासीत् तदा कुपिताः ते वसिष्ठपुत्राः तैः दत्तचण्डालभावः गुरोः वचनं भवान् तिरस्करोति अतः चण्डालत्वं प्राप्नुहि इति शापेन चाण्डालत्वं प्रापितः त्रिशङ्कुः तमेनं तपस्यन्तं कौशिकं शरणम् अभजत रक्षितारं प्राप्तवान् शरणं गृहरक्षित्रोः इत्यस्ति यः रक्षणं करोति सः शरणः सो विश्वामित्रं शरणम् आगतवान् त्रिशङ्कुः सो सः वस्तुतः सूर्यवंशस्य महाराजः सशरीरः स्वर्गं गन्तुम् इष्ट्वा गुरुणा गुरुपुत्रैश्च तिरस्कृतः शप्तः विश्वामित्रं शरणं प्राप्तवान् सूर्यवंशस्य राजा त्रिशङ्कुः देहसहितः एव सुरलोकं प्राप्तुम् इच्छन् तदर्थं कुलगुरुं वसिष्ठं प्रार्थयामास सो हि वाण्ट् टु गो टु स्वर्ग वित् हिस् बाडि सो हि इनिशियलि आस्क्स् हिस् गुरु वसिष्ठ सो वसिष्ठेन निराकृतः तस्य पुत्रान् बलेन निर्बबन्ध सो बीङ्ग् रिजेक्टेड् बै वसिष्ठ हि ट्रैस् टु गेट् हिस् sons to perform some sacrifice for this purpose and he pesters them repeatedly kupitaah tatputraah mahodayaadayah trishankum chandalatvena shaptavantah so they are angry and they curse trishanku to become a chandala tatah trishankuh tapasyantam kaushikam rakshanartham ayatata so then he comes to vishwamitra who is performing tapas and asks him for help सो सावित्रः सवितुः अपत्यं सावित्रः पूर्वमपि दृष्टशब्दः सशरीरः शरीरेण सहितः सशरीरः अभ्यर्थयमानः अभि अर्थ उपयाच्यायाम् इति धातुः प्रार्थयते इत्यादिषु शानच् प्रत्ययः सो अभ्यर्थयमानः निर्बन्धकुपितैः निर्बन्धेन कुपिताः तैः निर्बन्धकुपितैः दत्तचण्डालभावः चण्डालस्य भावः चण्डालभावः दत्तः चण्डालभावः यस्मै सः दत्तचण्डालभावः तमेनं शरणमभजत सो अथ सावित्रः क्षत्रियस्त्रिशङ्कुः सशरीरस्वर्गसिद्धिमभ्यर्थयमानो वसिष्ठेन प्रत्याख्यातस्तस्य पुत्रैर्महोदयादिभिर्निर्बन्धकुपितैर्दत्तचण्डालभावस्तमेनं शरणमभजत अत्र स्थापयामः सो विश्वामित्रः रामलक्ष्मणाभ्यां सह जनकस्य यागमण्डपं प्राप्तवान् मिथिलायाः समीपे तत्र जनकस्य कुलपुरोहितः शतानन्दः कौशिकस्य कथां रामलक्ष्मणाभ्यां कथयितुम् आरब्धवान् सो तत्र श्लोकेन प्रसङ्गः उक्तः तिष्ठन् क्षत्रार्हवृत्तौ मुनिरगमदसौ आश्रमं ब्रह्मसूनोः आतिथ्यं तत्र लब्ध्वा निरवधिसुरभेः प्राभवादित्यवेत्य सा तेन प्रार्थिता भूत् तदनुमुनिवरेणाभ्युपेते चकर्ष क्रोशन्तीं तां तयैव प्रचुरबलजुषा कान्तिशीको बभूव सो सुरभिं प्राप्तुम् इच्छा सुरभ्या एव सः तया सृष्टेन बलेन पलायितः कौशिकः सो तपसा बहूनि दिव्यास्त्राणि प्राप्य पुनरपि आक्रम्य वसिष्ठस्य ब्रह्मदण्डात् पराभवं प्राप्तवान् ततः ब्राह्ममेव बहुमहीयः इति निश्चित्य तत्सिद्धये तीव्रतरं तपश्चचार सदक्षिणदिग्भागे तपः करोति तस्मिन् समये सूर्यवंशस्य राजा त्रिशङ्कुः सशरीरं स्वर्गं प्राप्तुम् इच्छन् वसिष्ठेन निराकृतः तत्पुत्रैः शप्तः विश्वामित्रं रक्षणार्थम् उपसर्पति अग्रे अग्रिमवर्गे पठामः मङ्गलं कुर्मः जानकी भगिनी
लक्ष्मीं तनूतु नितरामितरानपेक्ष्यमं ग्रीद्वयं निगमशाति शिखाप्रवालं हैरम्भमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः
धन्यवादाः